विशोपीशोभो अदीथिम् वा जयन्तः पुरप्रियम् अग्न्यम् भो दुर्यम् पतस्तुषे सूषस्य मन्मभिः युञ्जनासो हविष्मन्तो मित्रन्न सर्पिराशुनिम् प्रशंसम् दिप्रशस्तिभिः अन्याम् संजातवेद संयो देवताद्युज्यता हव्यान्यैरयद्दिभि आगन्मवृत्रहन्तमम् ज्येष्ठमग्निमानवम् यस्य श्रुतर्वा बृहन्नाक्षो अनीकयेधते अमृतम् जातवेदसम् चिरस्तमाम् चिदर्शतम् मृताः वनमीड्यम् सबाधोऽयम् जना इमे येज्ञम् हव्येभिरीडते जुह्वानासो यतश्रूतः इयम् तेन व्यसीमतिरग्ने अथा यस्मदा अन्धसुजारसुक्रतोमोरस्मादीथे साहये अग्ने सन्तमातनिष्ठा भवतु प्रिया तया वर्धस्वसुष्ठूतः साद्युम्नैर्द्युम्निनी बृहदुवोपस्रवशिश्रवाः धीतवृत्रूर्ये अश्वमिद्गाम्रसप्राम् पेषमिन्द्रम् न सत्पतिम् यस्य श्रवाम् शिशूर्वसपन्यम् पन्यम् च कृष्टयाः यन्वा गोपवानो गिराचनिष्ठदग्ने अङ्गिरः सपावकश्रुधीहवम् यन्वाजना शरीरते सबाधो वाजसातये सर्वोऽधिरतरूरे अहम् भूपान आर्क्षे सर्वाणि मदच्युति श्रद्धाम् शीलस्तु काविनाम् वृक्षाशीर्षा च दुर्णाम् माम् चत्वारा आसभस्सविष्ठस्य द्रवित्रवाः सुरसासो अभिप्रजो वक्षन्वजो न तुज्ञयम् सत्यमित्वा महेनधिपरुष्ण्यवदे दिशम् नेमाभो अश्वदातारः सविष्ठारस्तिमर्त्याः